अथ सप्तमोऽध्यायः श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रय असंशयं समग्रं यथा ज्ञास्यसि तत्सिनु ज्ञानं त्वेहं सविज्ञान इदं वक्ष्याम्यशेषत यद्वा त्वा नेह भूयोन्यस् ज्ञातव्यमवशिष्यते मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः भूमिरापो नलो वायो खं मनो बुद्धिरेव च अहंकार इति यमे भिन्ना प्रकृतिरस्तथा अपरेयमितस्मन्यां प्रकृति विद्धि मे परां जीवभूतां महाबाहो यदिदं धार्यते जगत् एतद्योनिभूतानि सर्वाणि च्युपधारय अहं कृष्णस्य जगत प्रभव प्रलयस्तथा मत्तपरतरं नान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ह्रसोऽहमाप्सु कौन्तेय प्रभास्मि शशि सूययो प्रणव सर्वभेदेषु शब्दखे पौरुषंषु पुण्यो गन्धः पृथिव्यांश तेजश्चास्मि विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु बीजं मां सर्वभूतानां वेद्धि पार्थ सनातनम् बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् बलं बलवतां चाहं कामरागविवर्जितां धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ये चैव सात्विका भावा राजसास्तामसास्य ये मात एवेति तान् वेद्धि न त्वहं तेषु ते मयि त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् मोहितं नाभिजानाति मामेभ्यः परमव्ययम् दैवी एषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतान्तरन्ति ते न मां दुष्कृति नो मूढा प्रपद्यन्ते नराधमा मायापसित ज्ञान आसुरं भवमाश्रिता चतुर्विधा भजन्ति मां जनाः सुकृतिनोर्गुणा आतो जिज्ञासुरर्थाति ज्ञानी स भरतर्षभ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थ महं स च मम प्रिय उदारा सर्व एवैते ज्ञानी त्वात्मैव मे मतम् आस्थित स हि युक्तात्मा मामेवानुत्तमाङ्गते बहूनां जन्मनामान्ते ज्ञानवान् मां प्रपद्यते वासुदेव सर्वमिति स महात्मा सुदुर्लभ कामैस्तैस्तैरितज्ञाना प्रपद्यन्तेऽन्यदेवता तं तं नियममास्थाय प्रकृत्या नियतः स्वया यो यो यां यां तनुं भक्त श्रद्धयार्चितुमेच्छति तस्य तस्याचलं श्रद्धां तामेव विदधाम्यहं सतया श्रद्धया युक्त स्तस्याराधनमीहते लभते च ततो कामान् मयैव विहितानितान् अन्तवत्तु फलं तेषां पद्मवाच्यल्पमेधसां देवान् देवयजूयान्ति मद्भक्ता यान्ति मामपि अव्यक्तं व्यक्तिमापन्नं मान्यन्ते मामबोधय परं भावमजानन्तो ममाव्ययमनुत्तमं नाहं प्रकाशः सर्वस्य योगमाया समावृत मूढोऽयं नाभिजानाति लोको मामजमव्ययम् वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां तु वेद न कश्चन इत्साद्वेषसमर्थेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां ते द्वन्द्वमोहनिर्मुक्ता भजन्ति मां दृढव्रता जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ते ब्रह्मपद्विदो कृष्ण मध्यात्मं कर्म चाखिलं साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ज्ञान काले विषमाय तेव दुर्युक्त चेतस तेव दुर्युक्त चेतस।
ओम तत्सत श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञान विज्ञान योगो नाम सप्तमः।